एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणे प्रतिनिधि सभा सदस्यानां निर्वाचने मंगलवासरे पञ्चषष्ट्युत्तरैकशते निर्वाचन क्षेत्रेष् मनोनयन पत्रम् पञ्जीकारितानां त्रिसहस्राणां चतुशतस्य सप्ताशीतेश्च प्रत्याशिनां मध्ये चतुर्ष् जनपदेष् पञ्चानां प्रत्याशिनां विरूद्धे निर्वाचन आयोगे विरोध ज्ञापन पत्रम् पञ्जीकारितमस्ति। सुनसरी जनपदस्य द्वितीय निर्वाचन क्षेत्रे एकम्, रौतहट जनपदस्य प्रथम निर्वाचन क्षेत्रे एकम्, भक्तपुर जनपदस्य द्वितीय निर्वाचन क्षेत्रे द्वे, कैलाली जनपदस्य प्रथम निर्वाचन क्षेत्रे एकम् च विरोध ज्ञापन पत्राणि पञ्जीकारितानि सन्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। अद्य सायं पञ्चवादनं यावत् मनोनयन पत्राणां विरोध ज्ञापन पत्राणां च अनुसन्धानं विधाय निर्णश्यते इति असौ असूचयत्। अद्य सायं पञ्चवादनात् सायं सप्तवादनं यावत् प्रत्याशिनां नामावली प्रकाशयिष्यते। श्वः प्रातः दशवादनात् दिवा एकवादनं यावत् प्रत्याशिनां नाम्ना प्रत्यावर्तनस्य समयः निर्धारितोऽस्ति। श्वः एव दिवा एकवादनात् त्रिवादनं यावत् प्रत्याशिनाम् अन्तिमा नामावली प्रकाशयिष्यते। दिवा चतुर्वादनात् सायं सप्तवादनं यावत् प्रत्याशिभ्यः निर्वाचन चिह्नस्य प्रदानस्य कार्यक्रमोऽस्ति इति निर्वाचन आयोगेन ज्ञापितम् वर्तते। सर्वकारेण प्रतिनिधिसभा सदस्यानाम् आसन्न निर्वाचने राजनीतिक दलानां प्रत्याशिनां च प्रचारं प्रसारं व्यवस्थितं विधातुं, सुरक्षा व्यवस्था इतोऽपि सुदृढां विश्वसनीयां च कर्तुं जनपद सुरक्षा समितयः निर्दिष्टाः सन्ति। गृहमन्त्रिणः ओमप्रकाश अर्यालस्य अध्यक्षतायां पूर्वेद्युः उपविष्टेन केन्द्रीय सुरक्षा समितेः उपवेशेन निर्वाचन कार्यक्रमे समन्वयं कर्तुं संघटितानि सर्वाणि संयन्त्राणि सक्रियाणि विधातुं निर्णीतमस्ति। उपवेशेन निर्वाचनस्य प्रचारस्य प्रसारस्य च क्रमे सामाजिक सञ्जालस्य दुरुपयोगं नियन्त्रयितुं निरीक्षणं प्रभावकारि विधातुं च निर्णीतमस्ति इति गृहमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। उपवेशे निर्वाचन सुरक्षा योजना सम्बद्धै चतुर्भिः सुरक्षा निकायैः विहितानां पूर्वकार्याणां विषये समीक्षा सम्भूता आसीत्। निर्वाचनं लक्ष्यीकृत्य केन्द्रीय सुरक्षा समितितः पारितीकृत्य एतद्विक्रमवर्षीया एकीकृत सुरक्षा योजना क्रियान्विता अस्ति। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानं निर्वाचनं लक्ष्यीकृत्य रौतहट, बैतडी, म्याग्दी, काभ्रेपलाञ्चोक, लमजुङ, चितवन जनपद प्रशासन कार्यालयैः जनपदानाम् अभ्यन्तरे विद्यमानानि अनुमति प्राप्त शस्त्रास्त्राणि निर्धारित समयस्य अभ्यन्तरे प्रत्यावर्तयितुं सम्बद्ध पक्षः निर्दिष्टः वर्तन्ते। एभि जनपद प्रशासन कार्यालयैः सूचनां प्रकाश्य निर्वाचनं सफलीकर्तुम् अस्यैव माघ मासस्य विंश दिवसस्य अभ्यन्तरे सन्निकटस्थ प्रहरी कार्यालयस्य माध्यमेन जनपद प्रहरी कार्यालये, साक्षात् जनपद प्रहरी कार्यालये वा शस्त्रास्त्राणि अर्पयितुं सम्बद्ध पक्षः निर्दिष्टः वर्तन्ते। निर्धारित समयस्य अभ्यन्तरे शस्त्रास्त्रेष् न अर्पितेष् सत्स् प्रचलित विधे अनुसारेण दण्डयिष्यन्ते इति जनपद प्रशासन कार्यालये सम्बद्ध पक्षः प्रत्यादिष्टः वर्तन्ते। चितवन जनपदस्य मतदानस्थलानि निर्वाचनस्य दृष्ट्या भागत्रय विभक्तानि वर्तन्ते। जनपद सुरक्षा समित्या अतिसंवेदनशीलानि संवेदनशीलानि सामान्यानि चेति कृत्वा भागत्रय विभक्तानि सन्ति। सुरक्षायाः दृष्ट्या मतदानस्थलानि प्रतिनिर्वाचनं विभाज्य सुरक्षायाः व्यवस्था विधीयमाना वर्तते। चितवन जनपदस्य प्रमुख जनपदाधिकारिणः गणेश अर्यालस्य अनुसारेण त्रयोविंशतिर्मतदानस्थलानि अतिसंवेदनशीलानि, त्रिनवतिर्मतदानस्थलानि संवेदनशीलानि, सप्तचत्वारिंशत् स्थलानि सामान्यानि च निर्धारितानि वर्तन्ते। अस्य वर्षस्य माध्यमिक शिक्षा परीक्षा आगामिनः चैत्र मासस्य एकोनविंशात् दिवसात् ऊनत्रिंशं दिवसं यावत् सञ्चालयिष्यते। राष्ट्रिय परीक्षा समित्या ह्यः परीक्षा तालिकां प्रकाश्य एवं ज्ञापितमस्ति। परीक्षा समितेः अनुसारेण चैत्र मासस्य ऊनविंशे दिवसे प्रथमे दिने अनिवार्याङ्गल विषयस्य परीक्षा भविता। चैत्र मासस्य सप्तविंशे, अष्टाविंशे, एकोनत्रिंशे च दिवसेष् प्राविधिक विषयाणां परीक्षा भविते इति परीक्षोप नियन्त्रकः विष्णुप्रसाद गेवाली असुचयत। अस्मिन् वर्षे फाल्गुन मासस्य एकविंशे दिवसे प्रतिनिधि सभा सदस्यानां निर्वाचनस्य दिनांक निर्धारितोस्तीत्यत गतवर्षस्य तुलनायां परीक्षा द्वादश दिनानि विलम्बेन सम्पत्स्यमाना वर्तते। नेपाली कम्युनिष्ट दलस्य संयोजक पुष्पकमल दाहाल प्रचण्ड निगदति रूकुम जनपदीया जनताया समृद्धे आकांक्षा पूरयितुम् आत्मना रूकुम पूर्व जनपदात् प्रत्याशिता पंजीकारिता अस्ति। प्रेस सेन्टर नेपालस्य रूकुम पूर्व जनपदीय शाखया य रूकुम कोट स्थाने आयोजित पत्रकार सम्मेलने संयोजक प्रचण्ड जनपदस्य इतिहासे भूगोले संस्कृतौ विविध जातीनां भावनायां च आधृतस्य विकासस्य संरचनाया अग्रेवर्धनाय प्रतिबद्धतां व्यक्तवान्। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन सह नेपालस्य कृते भारतीय दूतावासस्य नियोगोपप्रमुखेण निमित्त राजदूतेन डा रमेश पाण्डेभिदेन शिष्टाचार मेलवार्ता विहिता अस्ति। लैन चौरवर्तिने उपराष्ट्रपतेः कार्यालये ह्यः सम्भूते मेलने एतयोर्मध्ये द्विपक्षीय सम्बन्धस्य सहयोगस्य अन्य विविधानांश विषयेषु विमर्शनं सम्भूतम् आसीत्। अमेरिका देशात् नवतिर् नेपाल नागरिकाः प्रत्यावर्तिताः वर्तन्ते इति अध्यागमन विभागेन ज्ञापितमस्ति। प्रत्यावर्तिताः नवतिर्जनाः काष्ठमण्डपे सम्प्राप्ताः सन्ति इति अध्यागमन विभागस्य महानिर्देशकः रामचन्द्र तिवारी असूचयत्। अमेरिका देशेन विशेष विमानस्य माध्यमेन एते जनाः काष्ठमण्डपम् आनीताः सन्ति। अधुनावधि चतुश्शताधिकाः नेपाल नागरिकाः अमेरिका देशात् नेपालं प्रति प्रत्यावर्तिताः वर्तन्ते इति महानिर्देशकः तिवारी असूचयत्। प्रत्यावर्तिताः जनाः प्रपत्र विहीनः अवैधानिक रूपेण स्थितः अध्यागमन विधेय पालनाम् न विहितवन्तश्च सन्तीति ज्ञापितम् वर्तते। पाल्पा जनपदस्य रिव्दीकोट ग्रामपालिकायाः प्रथम ओडा क्षेत्रवर्तिनी जोगीथुम स्थानात् रीडीघट्टम् प्रति शवयात्रायै प्रस्थीयमानस्य जीपयानस्य दुर्घटनायाम् एको जनो मृतोऽस्ति। दुर्घटनायाम् षड् जनाः आहताः वर्तन्ते।